एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः कथयति नैजक क्षेत्रस्य नियन्त्रणत्वेन उद्योग व्यवसायेषु प्रतिकूल प्रभाव सर्जनत्वेन वा कोऽपि विधिः न निर्मीयते। नेपालोद्योग वाणिज्य महासंघस्य नवनिर्वाचितैः पदाधिकारीभिः सह यो बालवाटार स्थाने सम्पन्ने मेलने असौ अवदत् अर्थतन्त्रे संकटोद्भवनस्य समये नैज क्षेत्रस्य संकोचनत्वेन प्रतिकूल प्रभाव सर्जनत्वेन वा कोऽपि विधिर् न निर्मीयते। प्रधानमन्त्री प्रचण्डः नैज क्षेत्रस्यापि राज्यस्य मर्यादाक्रमे समावेशनत्वेन सर्वकारेण विमर्शनम् अग्रे सारितम् अस्तीति समस्पष्टयत्। सर्वोच्च न्यायालयेन काष्ठमण्डप महानगरपालिकायै सिंहप्रासादस्य आभ्यन्तरम् अवकरम् दिनत्रयस्य अभ्यन्तरे उत्थापयितुम् अन्तरिमादेशः प्रदत्तो वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशस्य प्रकाशमान सिंह राउतस्य एकल न्यायपीठेन पञ्जीकारितम् आदेशाभियाचन निवेदनम् ह्यः शृण्वता। आदेशप्राप्तेः दिनांकतः दिवसत्रयस्य अभ्यन्तरे सिंहप्रासादाभ्यन्तरस्य आभ्यन्तरक्षेत्रस्य शीतलनिवासस्थितस्य राष्ट्रपति कार्यालयस्य प्रधानमन्त्री कार्यालयक्षेत्रस्य च अवकरम् उत्थापयितुम् महानगरपालिकायाः नाम्नि आदेशोऽयम् प्रदत्तो वर्तते। सांविधानिक्याः वैधानिक्याश्च व्यवस्थायानुसारेण अवकरम् संकलय्य तस्य विसर्जनस्य दायित्वम् स्थानीयस्तराय अर्पितम् दृष्टमिति हेतुः स्थानीयस्तरस्य रूपेण काष्ठमण्डप महानगरपालिकया एतेषाम् क्षेत्राणाम् अवकरः उत्थापनीयः इत्यादिष्टम् वर्तते। एवमेव आदेशे अवकर व्यवस्थापन क्षेत्रे आवश्यक समन्वयाय उचित सहकार्याय च प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य गभीरम् ध्यानम् आकर्षितम् वर्तते। उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का कथयति स्ववैशाखस्य दशमे दिवसे उपनिर्वाचनस्य सम्पादनस्य पश्चात् सर्वकारेण पूर्णता अवाप्स्यते। ह्यः सुर्खेत विमानस्थले पत्रकारै सह उपप्रधान रक्षामन्त्री खड्का प्रधान न्यायाधीशस्य नियुक्तेः श्रवण समितेः निर्माणस्य च प्रक्रिया अग्रे वर्धितेति ज्ञापयन् सांविधानिक परिषदा सम्बद्धम् विधेयकम् संसदि प्रस्तुतमस्तीति च अबोधयत्। भिन्न प्रसंगे मन्त्री खड्का आगामिनः आर्थिक वर्षस्य आयव्ययके कर्णाली तटीय मार्गस्य कार्यम् प्राथमिकतायाम् संस्थापयिष्यते इति अब्रवीत्। भारतस्य नयाँ दिल्ली स्थाने उपचाररतस्य राष्ट्रपतेः रामचन्द्र पौडेलस्य स्वास्थ्यावस्थायाम् क्रमशः सुधारः जायमानोऽस्ति। राष्ट्रपतेः पौडेलस्य उपचारे संलग्नेन चिकित्सकेन ह्य एवं ज्ञापितमिति नयाँ दिल्लीस्थेन नेपाली राजदूतावासेन ज्ञापितम् वर्तते। राष्ट्रपतेः पौडेलस्य स्वास्थ्योपचारः गत बुधवासरात् नयाँ दिल्लीस्थे अखिल भारतीय आयुर्विज्ञान संस्थाने जायमानो वर्तते। वन वातावरण मन्त्रालयस्य वातावरण विभागेन सम्प्रति काष्ठमण्डपोपत्यकया सह आराष्ट्रम् वायु प्रदूषणस्य वर्धनात् एतस्य न्यूनीकरणाय सहयोक्तुम् सावधानताम् अवलम्बितुम् च सम्बद्धाः सर्वे पक्षाः अनुरुद्धाः सन्ति। विभागः पूर्वेद्युः पत्रकारै सह अन्तरक्रिया कार्यक्रमम् आयोज्य सम्प्रति विहिताभ्याम् राष्ट्रस्य वायोः गुणस्तरस्य अनुगमनेन विश्लेषणेन च पश्चात्तन सप्ताहात् शतद्वय एक्यूआई परिमाणस्य प्रदूषणम् मापितम् सूचकाङ्कोऽयम् अस्वास्थ्यकरश्चास्तीति हेतोः विशेष सावधानताम् अवलम्बितुम् सम्बद्ध निकायान् सर्वसाधारण नागरिकान् च अन्वरुणत्। अन्तरक्रिया कार्यक्रमे विभागस्य प्रवक्ता शंकर प्रसाद पौडेलः देशस्य विभिन्नेषु भागेषु दावानलक्रमस्य वर्धनेन सहैव वायु प्रदूषणस्य च वर्धनम् प्राप्तम् एवं प्रातः सायंकाले च प्रदूषणस्य मात्रा अधिका भवतीति हेतोः सावधानताम् अवलम्बितुम् अन्वरुणत्। विभागेन गृहाद् बहिर्निष्क्रमणावधौ अनिवार्यतो मुखावरणिकाम् प्रयोक्तुम् उन्मुक्त स्थानेषु लचकद पदार्थान् कृषिजन्य वस्तुनि च न दाहयितुम् स्वल्प दूर्याम् साइकल यानेन चलितुम् पदयात्राम् वा कर्तुम् सर्वसाधारण जनाः अनुरुद्धाः सन्ति। एवमेव प्रदेशाः स्थानीयस्तराः दावानलेन सम्बद्धाः संस्थाः उपभोक्ति समूहः उद्योगिनः व्यवसायिनश्च वायु प्रदूषण वर्धकान् क्रियाकलाप पान न कर्तुम कारयितुम च विभागेन अनुरुद्धाः सन्ति। सर्वकारेण प्रतिनिधि सभायाः सदस्यानां निर्धारितोपनिर्वाचनेषु त्रिषु निर्वाचन क्षेत्रेषु स्वरविवासरे सार्वजनिकावकाशः प्रदत्तोऽस्ति। गृहमन्त्रालयेन ह्यः सूचनां प्रकाश्य बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रे, चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रे, तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रे च स्ववैशाखस्य दशमे दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय अवकाशः प्रदत्तोऽस्ति। एवमेव निर्धारित मतदान स्थलेषु, विद्यालयेषु, सर्वकारीय निकायेषु च ह्यस्तन दिवसात् दशमं दिवसं यावत् दिनत्रयम् अवकाशो भवतीति गृहमन्त्रालयेन ज्ञापितं वर्तते। निर्वाचनायोगेन प्रतिनिधि सभायाः सदस्यानाम् उपनिर्वाचनाय क्रियान्वितस्य प्रचार प्रसारयोः निषेधावधेः सूक्ष्मम् अनुगमनम् निरीक्षणम् च विधातुम् विशेष व्यवस्था विहिता अस्ति। गत विक्रम वर्षीयायाः निर्वाचन आचार संहितायाः अनुसारेण आयोगेन निरीक्षणाय व्यवस्थेयम् विहिता वर्तते। आयोगेन निर्धारितोपनिर्वाचनानां सम्बद्ध निर्वाचन क्षेत्राणां राजनीतिक दलैः, प्रत्याशिभिः, प्रत्याशिनां प्रतिनिधिभिः, मतदातृभिश्च विना बाह्य जनपदानां, क्षेत्राणां वा व्यक्तीनाम् अवांछित गमनागमनम्, अनधिकृत गतिविधिञ्च न कर्तुं कारयितुञ्च सम्बद्धाः सर्वे जनाः अनुरुद्धाः सन्ति। स्वसम्पत्स्यमानम् उपनिर्वाचनम् स्वच्छे स्वतन्त्रे भयरहिते च वातावरणे सम्पादयितुम् विहितायाः व्यवस्थायाः प्रभावकारितायै निर्वाचनायोगे ह्यस्तन दिवसात् उपनिर्वाचन सुरक्षा व्यवस्थानुगमन संयन्त्रम् संस्थापितमस्ति। गृहमन्त्रालयस्य सहसचिवस्य जितेन्द्र बस्नेत इत्यस्य संयोजकत्वे संस्थापिते संयन्त्रेऽस्मिन् नेपाली सेनायाः, नेपाल प्रहरिणः, सशस्त्र प्रहरिणः, राष्ट्रिय अनुसन्धान विभागस्य च सदस्याः वर्तन्ते। संयन्त्रस्य कार्यारम्भस्य अवसरे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया उपनिर्वाचनम् स्वच्छम्, स्वतन्त्रम्, निष्पक्षम्, विश्वसनीयम्, पारदर्शी, भयमुक्तम् च विधातुम् दायित्ववाहिना कार्यम् कर्तुम् निरदिशत्। स्व वैशाखस्य दशमे दिवसे तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रे सम्पत्स्यमानाय उपनिर्वाचनाय पृथ्वीराज मार्गे प्रहरी सुरक्षया यातायात साधनानि सञ्चालयिष्यन्ते। मुख्य राजमार्गस्य रूपेण विद्यमानस्य मार्गखण्डस्य अन्तर्गतम् मुङ्गलिङ्ग स्थानतः चापाघाट स्थल पर्यन्तम् प्रहरी सुरक्षा परिवेष्टनेन यातायात साधनानाम् सञ्चालनस्य व्यवस्थेयम् विधीयमाना वर्तते। निर्धारितोपनिर्वाचनस्य क्षेत्रस्य अन्तर्गतेषु स्थानेषु यात्रिभ्यः अवारोहणाय, आरोहणाय च अनुमतिर्न भविष्यतीति प्रमुख जनपदाधिकारी छविलाल रिजालः अज्ञापयत्। निर्वाचनस्य दिवसे तनहु जनपदस्य प्रथम क्षेत्रान्तर्गतानां पञ्चानां स्थानीयस्तराणाम् आभ्यन्तराः मार्गाः पूर्णरूपेण पिदापिताः भविष्यन्ति। बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रे स्ववैशाखस्य दशमे दिवसे सम्पत्स्यमानस्य उपनिर्वाचनस्य सम्पूर्ण पूर्व कार्याणि प्रपूरितानि सन्तीति मुख्य निर्वाचनाधिकृतस्य कार्यालयेन ज्ञापितं वर्तते। स्वच्छे, निष्पक्षे, शान्तिपूर्णे, भयरहिते च वातावरणे निर्वाचनम् सम्पादयितुम् निर्वाचन क्षेत्रे सहस्रद्वयम्, पञ्चाधिक षट्शतं च सुरक्षाकर्मिणः परिचालिताः सन्तीति बारा प्रमुख जनपदाधिकारी नवराज सापकोटा ज्ञापयत। बारा जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य द्व्यशीत्यां मतदान स्थलेषु 38% मतदान केन्द्राणि निर्धारितानि सन्ति। सर्वोच्च न्यायालयस्य कार्यवाहक प्रधान न्यायाधीशः हरिकृष्ण कार्की निगदति निष्पक्ष न्यायस्य कृते विधि व्यवसायिनाम् आचरणेन शोभनेन भाव्यम्। नेपाल बार एसोसिएशन संघस्य दोलखा स्थाने नवनिर्मितम् भवनम् ह्य उद्घाटयन् कार्यवाहक प्रधान न्यायाधीशः कार्की विधेय राज्यम् संस्थापयितुम्, पीडितेभ्यः निष्पक्षम् न्यायम् प्रदातुम् च पत्रकाराणाम्, विधि व्यवसायिनाम् च भूमिका महत्वपूर्णा भवतीति प्रत्यपादयत्। मदन भण्डारी प्रतिष्ठानस्य अध्यक्षपदे पूर्व मन्त्री, एमाले दलस्य नेता च महेन्द्रबहादुर पाण्डे प्रचितो वर्तते। इति समाचारः।